इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा. अथ वार्ताः. संसदा करविषयकानां तथा अन्येषां विधीनां संशोधन विधेयकं 20-26 इति पारितम्. राज्यसभया ह्यः चर्चानन्तरम् एतत् लोकसभायै प्रत्यर्पितम्. लोकसभया एतत् विधेयकं पूर्वमेव पारितमासीत्. केन्द्रीय वित्तमन्त्री निर्मला सीतारमण विधेयकं प्रस्तुतवती आसीत्. विधेयकेन धनप्रदान परिशोधन व्यवस्थाधिनियम 7-2000 आयकराधिनियम 20-25 तथा वित्ताधिनियम 20-26 चेत्येषु संशोधनं प्रस्ताव्यते. अनेन अधिनियमेन आयकर संशोधन अध्यादेश 20-26 इति प्रभावहीन भविष्यति. यः अस्य वर्षस्य जून मासस्य 5 दिनांके प्रख्यापित आसीत्. चर्चायाः प्रत्युत्तरं ददति केन्द्रीय वित्त मन्त्री अवदत् यत् विधेयकस्य उद्देश्यं भारतस्य विनिर्माण परितन्त्रस्य सुदृढीकरणम् अतिरिक्त निवेशस्य आकर्षणम् आजीविकायाः सृजनं तथा विनिर्माण गतिविधीनां प्रोत्साहनं वर्तते. सा अवदत् यत् द्वितीयः प्रमुखः संशोधनः भारतस्य निर्दिष्टेभ्यः दत्तांशकेन्द्रेभ्यः दत्तांशसेवाः प्राप्नुवतीनां वैदेशिक संस्थानां करमुक्ति प्रदानेन अथ व्यवसाय संचालनस्य च सुगमतायाः वर्धनेन सम्बन्धितः अस्ति. मन्त्रिणा स्पष्टीकृतं यत् विधेयकेन यूपीआई इति प्रयोक्तृभ्यः कश्चन करः उत वा व्यवहारशुल्कं न आरोप्यते. संसदा बैंकर्स बुक्स एविडेंस विधेयकं 20-26 अपि पारितम्. राज्यसभया तत् ह्यः अनुमोदितम् आसीत् एवञ्च लोकसभया तत् पूर्वमेव पारितम् आसीत्. प्रशासनेन 11 नूतनानि अन्ताराष्ट्रिय पत्तनानि अधिसूचितानि येन ई वीजा धारकानां वैदेशिक नागरिकाणां भारत प्रवेशः सुलभः भविष्यति. गृहमन्त्रालयेन उक्तं यत् एतेषु 9 भूपत्तनानि 2 च विमानपत्तने सम्मिलिते स्तः. एतेषु भोपालस्य तिरुपतेः च विमानपत्तने तथा अटारी अगरतला इत्येतयोः भूपत्तनानि सम्मिलितानि सन्ति. मन्त्रालयेनोक्तं यत् नूतनानां पत्तनानां समावेशेन ई वीजा इत्येतस्य उपयोगिता आकर्षणञ्च अधिकं वर्धिष्यते. मन्त्रालयानुसारं भारतं प्रायः 95% यावत् ई वीजा आवेदनानि 2 सप्ततिहोरातः न्यूनसमये निस्तारयति. नूतन पत्तनानां समावेशेन ई वीजा धारकाणां वैदेशिक नागरिकाणां प्रवेशाय अनुमतानां अन्ताराष्ट्रिय पत्तनानां संख्या आहत्य 88 जाता. एतेषु 37 विमानपत्तनानि 38 सामुद्रिकपत्तनानि तथा 13 भूपत्तनानि च सम्मिलितानि सन्ति. वाणिज्योद्योगमन्त्री पीयूष गोयलः अवदत् यत् प्रशासकीय ई मार्केट प्लेस जेम इतीदम् उच्चगुणवत्तायुक्तस्य उचितमूल्येन उचितसमये उचितोत्पादस्य क्रयणं प्रतिबिम्बयति. नवदिल्ल्यां जेम इत्यस्य 10 वर्षाणां पूर्त्युत्सवस्य अवसरे मन्त्री उक्तवान्. श्रीगोयलः स्मारितं यत् जेम इत्यस्य प्रवर्तनात् प्राक् सार्वजनिक धनस्य दुरुपयोगः भवति स्म, सुशासनस्य अभावः च आसीत्. श्रीगोयलः अवदत् यत् संचितरूपेण जेम इत्यनेन पटलेन 3 कोट्यधिकानाम् आदेशानां माध्यमेन 20 लक्ष कोटि रूप्यकाणां वस्तूनां सेवानां च क्रयणे साहाय्यं कृतम्. सः प्रतिपादितवान् यत् प्रथमाष्टवर्षेषु 10 लक्ष कोटि रूप्यकाणां क्रयणं जातं, तदनन्तरं 10 कोटि रूप्यकाणां क्रयणं केवलं वर्षद्वयोः एव अभवत् इति. भारतर्तु विज्ञान विभागेन अद्य हिमाचल प्रदेशे पूर्व राजस्थाने च अतिवृष्ट्यै नारंग वर्णपरा संचेतना प्रख्यापिता. ऋतु विभागानुसारेण अद्य अरुणाचल प्रदेश, असम, मेघालय, छत्तीसगढ़, गांगीय पश्चिम बंगाल, गुजरात, हरियाणा, चंडीगढ़, नवदिल्ली इत्येतेषां स्थलानां कतिपयेषु स्थानेषु अतिवृष्टिः सम्भाव्यते. इति वार्ताः.